इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। केन्द्रीय मन्त्रिमण्डलेन जनगणना 20-27 इत्यस्य कृते 18-17-1,000,000,000,000 रूप्यकाणां बजेट् इत्यस्य व्ययराशेः अनुमोदनं कृतं वर्तते। सूचना प्रसारण मंत्री श्री अश्विनी वैष्णवः नवदिल्ल्यां पत्रकारैः सह संवादे उक्तवान् यदियं जनगणना द्वयोः चरणयोः भविष्यति।
सेंसस दो फेजेस में होगा। फेज वन में फोकस रहेगा हाउसहोल्ड्स के अंदर क्या एमिनिटीज हैं, हाउसिंग कंडीशन कैसी है, कच्चा घर है, पक्का घर है, घर में कितने रूम्स हैं, किस तरह से घर में कोई व्हीकल है, घर में इलेक्ट्रिसिटी कनेक्शन कैसा है। दैट विल बी दी बेस फॉर फेज टू, जिसमें बहुत इंपॉर्टेंट है डेमोग्राफिक, सोशियो कल्चरल एंड इकोनॉमिक पैरामीटर्स का इन्यूमरेशन किया जाएगा पूरी जनसंख्या का।
श्री वैष्णवः अवदत् यत् आर्थिक कार्याणां मन्त्रिमण्डल समित्या कोयला इति कृष्णांगार संबद्ध नीतेः कोयला सेतुः इत्यस्यापि अनुमोदनं कृतम् अस्ति। सः अवदत् यद् आर्थिक कार्याणां मन्त्रिमण्डल समित्या 20-26 वर्षसत्रस्य कृते कोप्रा इत्यस्य शुष्क नारिकेलस्य कृते न्यूनतम समर्थन मूल्यमपि अनुमोदितं वर्तते। प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना उक्तं यत् केन्द्रीयमन्त्रिमण्डलेन अनुमोदित कृष्णांगार सेतुनीति भारतस्य ऊर्जासुरक्षां सुदृढं कर्तुं, विकासञ्च त्वरितं कर्तुं महत्वपूर्णं सोपानम् अस्ति। ह्यः सामाजिक माध्यम सन्देशे श्रीमोदी अवदत् यत् कोयला सेतुनीति अंगारस्य निर्विघ्नं कुशलं पारदर्शकञ्च उपयोगं सक्षमं कर्तुं नूतन गवाक्षम् उद्घाटयति। प्रधानमन्त्रिणा उक्तं यत् कोप्रा इत्यस्य न्यूनतम समर्थन मूल्यं वर्धयितुं सर्वकारस्य निर्णयः न केवलं नारिकेल कृषकाणाम् आयं वर्धयिष्यति अपितु कोप्रा उत्पादनञ्च प्रोत्साहयिष्यति। श्रीमोदी अवदत् यत् सर्वकारः देशे सर्वत्र कृषकाणां जीवनस्तरस्य उन्नयनार्थं प्रतिबद्धः वर्तते। प्रधानमन्त्री श्रीनरेन्द्रमोदी सोमवासरादारभ्य जॉर्डन, इथियोपिया, ओमान देशानां यात्रां करिष्यति। गतसायं नवदिल्ली नगरे माध्यम समूहान् सूचयन् विदेश मन्त्रालयस्य सचिवा डॉ नीना मल्होत्रा उक्तवती यत् प्रधानमन्त्री अस्य मासस्य 15-दिनांकात् 16-दिनांकपर्यन्तं राज्ञः अब्दुल्लाह द्वितीय बिन अल हुसैनस्य आमन्त्रणेन जॉर्डन देशं गमिष्यति। सावदत् यत् इयञ्च द्वयोः देशयोः कूटनीतिक सम्बन्धस्य स्थापनायाः 75वें वर्षे प्रधानमन्त्रिणः मोदिनः प्रथमा जॉर्डन यात्रा भविष्यति। अतः पश्चात् श्रीमोदी अस्य मासस्य 16-17 दिनांकयोः इथियोपिया देशं गमिष्यति। सावदत् यत् एषा यात्रा दक्षिण दक्षिण सहकार्यं गभीरं कर्तुं भारतस्य प्रतिबद्धतां प्रतिबिम्बयति। तथा च स्वस्य भ्रमणस्य अन्तिमपदे प्रधानमन्त्री डिसेम्बर मासस्य 17-18 दिनांकयोः ओमान यात्रां करिष्यति, यत्र प्रधानमन्त्रिणा सह उच्चस्तरीय प्रतिनिधिमण्डलं भविष्यति। नागरिक विमानन मंत्री के राममोहन नायडू उक्तवान यत् देशे विमान निर्माणम आरभते। श्री नायडू अवदत् यत् हिंदुस्तान एरोनॉटिक्स लिमिटेड संस्था रशिया विमान संस्था सुखोई इत्यस्मात् संबंधित प्रौद्योगिकीं प्राप्तुं प्रयतते। लोकसभायां विमान मूल्य नियमन सम्बद्धस्य प्रस्तावस्य प्रतिक्रियारूपेण नागरिक विमानन मंत्री अवदत् यत् केन्द्र सर्वकारस्य पार्श्वे असाधारण परिस्थितौ विमान प्रयाण मूल्यस्य सीमां निर्धारयितुम् अधिकारः वर्तते इत्युक्तवान्। अद्य सम्पूर्णं राष्ट्रं 24 वर्षपूर्वं डिसेम्बर मासस्य 13 दिनांके आतंकवादी आक्रमणे संसदः रक्षणं कुर्वन्तः प्राणान् त्यक्तवतेभ्यः सुरक्षा कर्मचारिभ्यः श्रद्धाञ्जलिं समर्पयति। अस्य अवसरस्य निमित्तं संसद भवन परिसरे प्राणाहुतिं समर्पितवद्भ्यः सुरक्षा कर्मचारिभ्यः पुष्प श्रद्धाञ्जलि प्रदानार्थं समारोहस्य आयोजनं क्रियते। उपराष्ट्रपतिः एवं राज्यसभा अध्यक्षः सीपी राधाकृष्णन्, प्रधानमन्त्री श्रीनरेन्द्रमोदी, लोकसभाध्यक्ष ओम बिरला, केन्द्रीयमन्त्रिणः एवं संसत्सदस्याः संसदभवने पुष्प श्रद्धाञ्जलिं समर्पयिष्यन्ति। क्रिकेट क्रीडायां गतरात्रौ दुबईनगरे पुरुष न्यूननवदश एशिया कप क्रिकेट इत्यस्य उद्घाटनक्रीडायां भारतेन यूएई देशः 34-200 धावनांकैः पराजितः इति वार्ता।